एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संक्रमण कालिक न्याय सम्बद्ध विधेयके प्रमुख दलेषु सहमतिर्धृतास्ति। नेपाली कांग्रेस दलस्य, नेकपा एमाले दलस्य, नेकपा माओवादी केन्द्रस्य च नेतृणाम् कार्यदलस्य ह्यस्तनोपवेशेन विधेयके अवशिष्टेषु विषयेषु सहमतिर्धृता वर्तते। विवादयुतेषु विषयेषु सहमतेः अनन्तरम् नेपालस्य शान्ति प्रक्रिया शीघ्रमेव निष्कर्षे प्राप्स्यतीति एमाले दलस्य मुख्य सचेतक पदीयो महेश वर्तौला असूचयत। गभीर मानवाधिकारस्य उल्लंघनस्य विषयेष्वपि सहमतिर्धृता सहमतौ पीडकेभ्य प्रतिशतम् पञ्चविंशतिः दण्डस्य याचनाम् अभियाच्य न्यायिक प्रकरणम् पञ्जीकारयितुम् शक्यते इति प्रावधानम् समाविष्टमस्तीति मुख्य सचेतक पदीयो वर्तौला असूचयत। एते विषयाः विज्ञानाम् परामर्शानुसारेण निष्कर्षे प्रापिताः सन्तीति चासौ असूचयत। सहमतेः प्रतिवेदनम् प्रधानमन्त्रिणे केपी शर्मा ओलीने, नेपाली कांग्रेस दलस्य सभापतये शेरबहादुर देउवा विधाय, माओवादी केन्द्रस्य अध्यक्षाय पुष्पकमल दाहाल प्रचण्डाय च संयुक्त रूपेण प्रदाय। विधेयकम् अग्रे सारयिष्यते इति च वर्तौला अज्ञापयत्। नेकपा एमाले दलस्य केन्द्रीय समितेः उपाध्यक्षपदे गुरूबरालः मनोनीतो वर्तते। नेकपा एमाले दलस्य ह्या उपविष्टेन केन्द्रीय सचिवालयोपवेशेन रिक्ते उपाध्यक्षपदे स्थायी समिति सदस्य बरालः नियुक्तोऽस्तीति दलस्य महासचिव शंकर पोखरेलः असूचयत। उपवेशेन दलस्य स्थायी समितेः सदस्यपदे मुकुन्द न्यौपाने, लीलानाथ श्रेष्ठश्च मनोनीतौ वर्तेते इति महासचिव पोखरेलः असूचयत। एवमेव उपवेशेन दलस्य प्रदेश प्रभारिणः दायित्वमपि प्रदत्तमस्ति। उपवेशेन कोशी प्रदेशस्य कृते शेरधनराहित्य विधेयाय, मयदेश प्रदेशस्य लीलानाथ श्रेष्ठाय, बागमती प्रदेशस्य कृते डाक्टर राजन भट्टराई इत्यस्मै, गण्डकी प्रदेशस्य किरण गुरूङ इत्यस्मै, लुम्बिनी प्रदेशस्य कृते पद्मा अरियाल इत्येयायै, कर्णाली प्रदेशे गोरखबहादुर बोगटी इत्यस्मै, सुदूरपश्चिम प्रदेशस्य कृते लेखराज भट्टाय च प्रभारी पदस्य दायित्वम् निर्धारितमस्ति। सचिवालयोपवेशेन केन्द्रीय सदस्यपदे सप्तदश जनाः नियुक्ताः सन्तीति च नेकपा एमाले दलेन ज्ञापितम् वर्तते। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली प्रधानमन्त्रिणः बालुवाटारवर्तिनी सर्वकारीय निवासे दलस्य कथम्विदोऽपि उपवेशः नायोज्यते इति उद्घोषयति। फेसबुक सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्री ओली स्वस्य स्वास्थ्यस्य अनुकूलताम् यावत् सर्वकारीय निवासे दलस्य कथम्विदोऽपि उपवेशः नायोज्यते इति उदघोषयत्। प्रधानमन्त्रिणः सर्वकारीय निवासे दलस्य उपवेशस्य नायोजनाय परामर्शनम् प्राप्तम् इत्यतः तस्य परिपालनम् विहितमस्तीति असौ उदैरयत्। प्रधानमन्त्री ओली ललितपुरस्य च्यासलवर्ती दलस्य केन्द्रीय कार्यालय जलमग्नो जात इत्यतः ह्यस्तनः सचिवालयोपवेशः अतिथिसदने आयोजितः इति असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन बागमती लुम्बिनी कर्णाली प्रदेशानाम् नवनियुक्ताः प्रदेश प्रमुखाः पदगोपनीयतयोः शपथेन प्रतिज्ञापिताः वर्तन्ते। शीतलनिवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते समारोहे बागमती प्रदेशस्य प्रमुख दीपक प्रसाद देवकोटा, लुम्बिनी प्रदेशस्य प्रमुख कृष्णबहादुर घरतीमगर, कर्णाली प्रदेशस्य प्रमुख यज्ञराज जोशी च शपथम् अगृह्णन्। समारोहे उपराष्ट्रपतिः, प्रधानमन्त्रिः, सभामुखः, राष्ट्रियसभायाः अध्यक्षः, उपप्रधानमन्त्रिणौ, मन्त्रिगणः, अन्य विशिष्ट महानुभावाश्च उपस्थिताः आसन्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति नेपाली वामपन्थीजनान् लोकतान्त्रिक प्रक्रियायाम् रूपान्तरयितुम् पुष्पलालस्य महद योगदानम् वर्तते। ह्य राष्ट्रपति कार्यालये आयोजिते गत विक्रम वर्षीय पुष्पलाल राष्ट्रिय पुरस्कार समर्पण समारोहे राष्ट्रपति पौडेलः पुष्पलालः नेपाली राजनीतेः मूर्धन्य नेता आसीदिति अस्मरत। राष्ट्रपति पौडेल लोकतांत्रिक आन्दोलने पुष्पलालस्य युग दानम संस्मरण हिंसात वीक्षया लोकतांत्रिक प्रक्रियात समाजस्य आन्तर विरोधा संकटश्च समाधातुं शक्यन्ते इति धारणाया उपस्थापक नेता पुष्पलाल आसीत् इति प्रत्यपादयत। समारोहे पूर्व प्रधानमन्त्री माधव कुमार नेपाल नेपालस्य वामलोकतांत्रिक आन्दोलने स्वर्गीय पुष्पलालस्य योगदानम् अतोलनीयमस्ति इति अवोचत। कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री पाण्डे राजनीतौ ज्ञानस्य सदाचारस्य च मार्गे अग्रे नीतौ सत्यमेव पुष्पलालं प्रति उचित श्रद्धाञ्जलि भवतीति प्रावोचत। सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्री दीर्घबहादुर सुडारी अद्य विश्वासस्य मतं गृह्णाति। संघीय सर्वकारे सम्भूतेन राजनीतिक परिवर्तनेन सहैव एमाले दलेन समर्थनं प्रत्यावर्तितम् इत्यतः मुख्यमन्त्री सुडारी अद्य विश्वासस्य मतं गृह्माणं वर्तते। मुख्यमन्त्री सुडारी गत बुधवासरे प्रदेश सभा सचिवालयं विश्वासस्य मतग्रहणाय आवश्यक व्यवस्थाया कृते पत्रं प्रेषितवान् आसीत्। इत्यस्मै अनुरोधानुसारेण सभामुख भीमबहादुर भण्डारी प्रदेशसभाया उपवेशम् अद्य आहूतवान् अस्ति। प्रदेशसभाया सूचनाधिकारी युवराज जैसी असूचयत। गृहमन्त्री रमेश लेखका निगदति राष्ट्रिय सदाचार नीति मानेतुं सर्वकार प्रतिबद्धो वर्तते। राष्ट्रिय सभाया विकासार्थिक विषय सुशासन समिते ह्यस्तनोपवेशे गृहमन्त्री लेखक चतुस्सप्तत्युत्तर द्विसहस्रतमे वैक्रमाब्दे प्रारूपतया निर्मिता सदाचार नीति पारितीकृत्य क्रियान्वयनं विधातुं सर्वकार प्रतिबद्धोऽस्तीति अगदत्। उपवेशे सांसदा देशे सुशासनाय सदाचार नीतिं क्रियान्वेतुं विलम्बनं न विधेयं नीतेः अपेक्षया विधेयरूपेण तस्यानयने आधिक्येन प्रभावकारी सम्भवति सुशासनाय सदाचार नीति महत्वपूर्णा भविष्यतीति च अभासन्त। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई भासते प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषद तत्कालं पुनर्संरचना विधास्यते। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समिते ह्यस्तनोपवेशे मन्त्री भट्टराई चिकित्सा शिक्षा योगेन सह समन्वयस्य सन्दर्भे पूर्वस्मादेव त्रुटिनां विद्यमानत्वात् शीघ्रमेव परिषद उपवेशेन पुनर्संरचनाय प्रस्ताव पारितीकरिष्यते इति अज्ञापयत्।